యోగం చ తం యోగ్యతమాయ తస్మై తపప్రభావాద్వితతార సద్యః యేనాస్య తత్వేషు కృతేవ భాసే సమున్మిమీలేవ చిరాయ చక్షుః. యోగం చేతి యోగ్యతమాయ అర్హతమాయ తస్మై పార్థాయ తం వక్ష్యమాణ మహిమానం యోగం ధ్యాన విధించ యోగ సన్నహనోపాయ ధ్యాన సంగతియుక్తిషు ఇత్యమరః. తపప్రభావాత్ సద్యః వితతార దదౌ చిరకాల గ్రాహ్యమపీతి భావః. యేన యోగేన తత్వేషు ప్రకృతిమహదాదిషు తథా చ మూల ప్రకృతిః మహాన్ అహంకారః మనశ్చ పంచతన్మాత్రాణి పంచబుద్ధీంద్రియాణి పంచకర్మేంద్రియాణి పంచమహాభూతానీతి చతుర్వింశతి తత్వాని. తత్ర అవభాసే సాక్షాత్కారే కృతే సతి అస్య అర్జునస్య చక్షుః అక్షి చిరాయ సమున్మిమీలేవ ఉన్మిషితమివ ఇతి ఉత్ప్రేక్ష. తదా తస్య కోపి మహాన్ అఖిలాజ్ఞానభంజనః తత్వావభాసః చిరాత్ అంధస్య దృష్టిలాభః ఇవ అభవదితి భావః.
ఆకారమాశంసిత భూరిలాభం దధానమంతఃకరణానురూపం నియోజయిష్యన్ విజయోదయే తం తపస్సమాధౌ మునిరిత్యువాచ. ఆకారమితి ఆశంసితః ఆఖ్యాతః భూరిలాభః అనేకశ్రేయః ప్రాప్తిః యేన తం తథోక్తం. మహాభాగ్యసూచకమిత్యర్థః. అంతఃకరణశబ్దేన తద్వృత్తిః ఉత్సాహః లక్ష్యతే. తదనురూపం తదనుకూలం ఉత్సాహానుగుణవ్యాపారక్షమమిత్యర్థః. ఆకారం మూర్తిం దధానం తం అర్జునం మునిః విజయోదయే విజయఫలకే తపస్సమాధౌ తపోనియమే సమాధిర్నియమే ధ్యానే నీవాకే చ సమర్థనే ఇతి విశ్వః. నియోజయిష్యన్ నియోజయితుం ఇచ్ఛన్నిత్యర్థః. లృట్ శేషే చ ఇతి లృట్. లృటః సద్వా ఇతి సత్ప్రత్యయః ఇతి వక్ష్యమాణం ఉవాచ. అనేన యోగేన వివృద్ధతేజాః నిజాం పరస్మై పదవీమయచ్ఛన్ సమాచరాచారముపాత్తశస్త్రః జపోపవాసాభిషవైర్మునీనాం. అనేనేతి అనేన స్వోపదిష్టేన యోగేన వివృద్ధతేజాః నిజాం పదవీం పరస్మై అయచ్ఛన్ పరస్య ప్రవేశం అయచ్ఛన్నిత్యర్థః. ఉపాత్తశస్త్రః నిగృహీతాయుధః సన్ జపోపవాసాభిషవైః స్వాధ్యాయ అనశనస్నానైః మునీనాం ఆచారం సమాచర అనుతిష్ఠ. కరిష్యసే యత్ర సుదుశ్చరాణి ప్రసత్తయే గోత్రభిదస్తపాంసి శిలోచ్చయం చారుశిలోచ్చయంతం ఏషక్షణాన్ నేష్యతి గుహ్యకస్త్వాం. కరిష్యస ఇతి యత్ర శిలోచ్చయే గోత్రభిదః ఇంద్రస్య ప్రసత్తయే ప్రసాదాయ సుదుశ్చరాణి తపాంసి కరిష్యసే. చారుశిలోచ్చయం రమ్యశిఖరం తం శిలోచ్చయం గిరిం ఇంద్రకీలరూపం అద్రిగోత్రగిరిగ్రావాచలశైలశిలోచ్చయాః ఇత్యమరః. త్వాం ఏష
गुह्यकः यक्षः अनन्तरमेव अस्य पुरः प्रादुर्भावात् एषः इति निर्देशः क्षणात् नेष्यति प्रापयिष्यति इति ब्रुवाणेन महेन्द्रसूनुम् महर्षिणा तेन तिरोबभूवे तम् राजराजानुचरोऽस्य साक्षात् प्रदेशमादेशमिवाधितष्ठौ इतीति इति इत्थम् महेन्द्रसूनुम् अर्जुनम् ब्रुवाणेन उक्तवता वर्तमानसामीप्ये इति भूते वर्तमानवत्प्रत्ययः तिरोधानस्य अविलम्बसूचनार्थः तेन महर्षिणा व्यासेन तिरोबभूवे अन्तर्दधे भावे लिट् राजराजः यक्षराजः राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः इति विश्वः तस्य अनुचरः पूर्वोक्तयक्षः अस्य मुनेः आदेशम् साक्षादिव प्रदेशम् अर्जुनाधिष्ठितस्थानम् अधितष्ठौ प्राप्त इत्यर्थः स्थादिष्वभ्यासेन चाभ्यासस्य इति षत्वम् कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ इयाय सख्याविव सम्प्रसादम् विश्वासयत्याशु सताम् हि योगः कृतेति सः पुण्यजनः यक्षः कृतानतिः कृतप्रणामः सन् व्याहृतसान्त्ववादे उक्तप्रियवचने व्याहार उक्तिर्लपितम् इत्यमरः जिष्णौ अर्जुने जातस्पृहः जातानुरागः सन् सख्यौ सुहृदी इव अथ मित्रम् सखा सुहृत् इत्यमरः सम्प्रसादम् विश्रम्भम् इयाय प्राप तथा हि सताम् साधूनाम् योगः सङ्गतिः आशु विश्वासयति विश्वासम् जनयति हि सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानानुदयाय तेन बृहद्युतीम् दुःखकृतात्मलाभम् तमशनैः पाण्डुसुतान् प्रपेदे अथेति अथ उष्णभासा सूर्येण उदयाय पुनरुद्गमाय विहीयमानान् त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः बृहद्युतीन् सौवर्णत्वात् दीप्यमानानित्यर्थः इति तमसः सङ्कोचकारणोक्तिः सुमेरुकुञ्जानिव अत्र सुमेरुग्रहणम् कुञ्जानाम् सौवर्णत्वद्योतनार्थम् तेन अर्जुनेन उदयाय श्रेयसे विहीयमानान् बृहद्युतीन् अनेकबुद्धिप्रकाशान् पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसन्धेयम् पाण्डुसुतान् चतुरः इति शेषः दुःखेन कृच्छ्रेण कृतः उपपादितः आत्मलाभः उत्पत्तिः यस्य तत्तथोक्तम् तेषाम् विवेकित्वात् कथञ्चित् लब्धोदयमित्यर्थः तमः शोकः अन्धकारश्च तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे इत्युभयत्रापि विश्वः शनैः मन्दम् प्रपेदे तेषाम् विवेकित्वात् भीतभीतमिवेति भावः अत्र तमः शब्दस्य श्लिष्टत्वात् श्लेषानुप्राणितेयम् उपमा।
असंशयालोचित कार्यनुन्नः प्रेम्णा समानीय विभज्यमानः तुल्याद्विभागादिवतन्मनोभिः दुःखातिभारोऽपि लघुः समेने।
असंशयेति असंशयम् असन्दिग्धम् यथा तथा आलोचितम् विवेचितम् यत्कार्यम् तेन नुन्नः निरस्तः इति लघुत्वहेतूक्तिः। नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति निष्ठानत्वम्। कार्यगौरवम् आलोच्य निरस्तः इत्यर्थः। तथापि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोकभागी क्रियमाणः तुल्येन प्रेम्णा तुल्यदुःखत्वम् भवतीति भावः। सः पूर्वोक्तः दुःखमेव अतिभारः अपि अतिभारभूतमपि दुःखमित्यर्थः। तन्मनोभिः तेषाम् चतुर्णाम् पार्थानाम् मनोभिः तुल्यात् विभागादिव पूर्वोक्तात् प्रेमकृतात् समविभागादिवेत्यर्थः। वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणम् तस्य हेतुत्वोत्प्रेक्षार्थम् अनुवादात् अदोषः। लघुः मेने मतः। यथा एकः अनेकधा विभज्य बहुभिः उह्यमानः महानपि भारः लघुः मन्यते तद्वदित्यर्थः। धैर्येण विश्वास्यतया महर्षेः तीव्रादरातिप्रभवाच्च मन्योः वीर्यञ्च विद्वत्सु सुते मघोनः सतेषु न स्थानमवाप शोकः। धैर्येणेति धैर्येण तेषाम् निसर्गतः निर्विकारचित्तत्वेन तथा महर्षेः व्यासस्य प्रवर्तकस्येति शेषः। विश्वास्यतया श्रद्धेयवचनत्वेन इत्यर्थः। अरातिप्रभवात् अरातिहेतुकात् तीव्रात् दुःसहात् मन्योः क्रोधाद्धेतोः तथा अर्जुनप्रभावपरिज्ञानाच्चेति। हेत्वन्तरम् विशेषणमुखेन आह। मघोनः सुते अर्जुने वीर्यञ्च न लोक इत्यादिना षष्ठी प्रतिषेधः। विद्वत्सु ज्ञातवत्स्विति यावत्। विदेश्चतुर्वसुः इति वैकल्पिकः वस्वादेशः। तेषु पार्थेषु सः शोकः स्थानम् स्थितिम् न अवाप न प्राप।
तान् भूरिधाम्नश्चतुरोऽपि दूरम् विहाय यामानिव वासरस्य एकौघभूतम् तदशर्म कृष्णाम् विभावरीम् ध्वान्तमिव प्रपेदे।
तानिति तत्पार्थान् त्यक्तवत् शर्म सुखम् शर्मशातसुखानि च इत्यमरः। तद्विरुद्धम् अशर्म दुःखम् नञ् इति नञ् समासः। भूरिधाम्नः अतितेजस्विनः इति हानिहेतुत्वोक्तिः। चतुरः तान् पार्थानपि वासरस्य भूरिधाम्नः चतुरः यामान् प्रहरानिव दूरम् विहाय त्यक्त्वा एकौघभूतम् एकराशिभूतम् सत् श्रेण्यादयः कृतादिभिः इत्यर्थे कर्मधारयः। श्रेण्यादिराकृतिगणः इति शाकटायनः कृष्णाम् विभावरीम् कृष्णपक्षरात्रिम् ध्वान्तमिव कृष्णाम् द्रौपदीम् प्रपेदे प्राप तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः अगूढभावापि विलोकने सा न लोचने मीलयितुम् विशेहे तुषारेति सा द्रौपदी विलोकने अर्जुनावलोकने अगूढभावा अगूढाभिप्राया अपि स्फुटाभिलाषिणीति यावत् भावो लीलाक्रिया चेष्टा भूत्यभिप्रायजन्तुषु इति वैजयन्ति मङ्गलभङ्गभीरुः मङ्गलहानेः भीता सती पर्यश्रुणी परिगताश्रुके बाष्पावृते इत्यर्थः अत एव तुषारलेखाकुलितोत्पलाभे हिमबिन्दुसहित इन्दीवरसन्निभे इत्युपमालङ्कारः लोचने मीलयितुम् न विषेहे न शशाक अश्रुणोः दृष्ट्यावरकत्वेऽपि तन्निपातस्य अमङ्गलत्वात् तन्निर्वर्तकम् निमीलनम् सा न चकार इत्यर्थः अकृत्रिमप्रेमरसाभिरामम् रामार्पितम् दृष्टिविलोभि दृष्टम् मनःप्रसादाञ्जलिना निकामम् जग्राह पाथेयमिवेन्द्रसूनुः अकृत्रिमेति इन्द्रसूनुः अर्जुनः क्रियया निर्वृत्तः कृत्रिमः द्वितक्त्रिः इति त्रिः त्रेर्मम् नित्यम् इति मम् प्रत्ययः तद्विरुद्धम् प्रेमैव रसः अकृत्रिमेण प्रेमरसेन अभिरामम् अन्यत्र प्रेमरसेन मधुरादिना च अभिरामम् रामया रमण्या अर्पितम् दृष्टिम् विलोभयतीति दृष्टिविलोभि दृष्टिप्रियमित्यर्थः दृष्टम् दर्शनम् नपुंसके भावेक्तः मनःप्रसादः प्रसन्नम् मन इत्यर्थः सः अञ्जलिरिवेत्युपमितसमासः तेन मनःप्रसादाञ्जलिना पथि साधु पाथेयम् शम्बलमिव पथ्यतिथिवसति स्वपतेर्ढञ् निकामम् अतिशयेन जग्राह रामार्पितम् पाथेयम् पथि क्षेमाय भवतीत्यागमः धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्रादिति राजपुत्री धैर्येति वन्यद्विपेन वन्यग्रहणम् उच्छृङ्खलत्वद्योतनार्थम् निदाघसिन्धुः ग्रीष्मनदीव निदाघग्रहणम् दौर्बल्यद्योतनार्थम् धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा हृतप्रसादा हृतनैर्मल्या शोभम् गमितेत्यर्थः राजपुत्री क्षत्रियसुता द्रौपदी अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः निरुद्धबाष्पोदयम् समृद्धरोदनम् सन्नकण्ठम् हीनस्वरम् अथ तयोः उभयोः कृतबहुव्रीह्योः क्रियाविशेषणयोः विशेषणसमासः कृच्छ्रात् कथञ्चिदिति वक्ष्यमाणमुवाच मग्नाम् द्विषच्छद्मनि पङ्कभूते सम्भावनाम् भूतिमिवोद्धरिष्यन् आधिद्विषामा तपसाम् प्रसिद्धेः अस्मद्विना मा भृशमुन्मनीभूः मग्नामिति पङ्कभूते पङ्कोपमिते भूतम् क्ष्मादौ पिशाचादौ न्याये सत्योपमानयोः इति विश्वः द्विषच्छद्मनि शत्रुकपटे मग्नाम् दुरुद्धरामित्यर्थः सम्भावनाम् योग्यताम् गौरवमिति यावत् भूतिम् सम्पदमिव भूतिर्भस्मनि सम्पदि इत्यमरः उद्धरिष्यन् उद्धारकस्त्वमिति शेषः आधिद्विषाम् दुःखच्छिदाम् तपसाम् आप्रसिद्धेः सम्यक् सिद्धिपर्यन्तम् अस्मद्विना अस्माभिर्विनेत्यर्थः पृथग्विना इत्यादिना विकल्पात् पञ्चमी भृशम् मा उन्मनीभूः अस्मद्विरहात् दुर्मनाः मा भूरित्यर्थः दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः माङ्गि लुङ् इत्याशीरर्थे लुङ् नमाङ्योगे इत्यडागमप्रतिषेधः अनुन्मनाः उन्मनाः सम्पद्यमाना उन्मनी अभूततद्भावे च्विः अरुर्मनश्चक्षुश्चेतोरहोरजसाम् लोपश्च इति सकारलोपः अस्य च्वौ इति ईकारः यशोऽधिगन्तुम् सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुम् वा निरुत्सुकानामभियोगभाजाम् समुत्सुके वाङ्कमुपैति सिद्धिः यश इति यशः अधिगन्तुम् कीर्तिम् लब्धुमित्यर्थः सुखस्य लिप्सया लब्धुमिच्छया वा मनुष्यसङ्ख्याम् मनुष्यगणनाम् अतिवर्तितुम् अतिक्रमितुम् वा अमानुषम् कर्म कर्तुम् वा इत्यर्थः अभियोगभाजाम् अभिनिवेशवताम् निरुत्सुकानाम् अनुत्सुकानाम् अदुर्मनायमानानामित्यर्थः सिद्धिः पूर्वोक्तम् यशः सुखाद्यर्थसिद्धिश्च समुत्सुकेव अनुरक्तकान्तेव अङ्कम् उत्सङ्गम् अन्तिकम् च उपैति तस्मात् अस्मद्विरहदुःखम् आतपःसिद्धेः सोढव्यमिति भावः लोकम् विधात्रा विहितस्य गोप्तम् क्षत्रस्य मुष्णन् वसु जैत्रमोजः तेजस्विताया विजयैकवृत्तेः निघ्नम् प्रियम् प्राणमिवाभिमानम् लोकमिति विधात्रा ब्रह्मणा लोकम् गोप्तुम् विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातेः सम्बन्धि जयनशीलम् जेतृ तदेव जैत्रम् जेतृशब्दात् तृण्णन्तात् प्रज्ञादिभ्यश्च इति स्वार्थे अण्प्रत्ययः ओजो बलम् दीप्तिर्वा ओजो बले च दीप्तौ च इति विश्वः तदेव वसु धनमिति रूपकालङ्कारः मुष्णन् अपहरन् अरिनिकृतस्य कुतः क्षात्रम् तेजः इति भावः किञ्च विजयैकवृत्तेः विजयैकजीवितायाः क्षत्रियस्य विजितव्यम् इति स्मरणादिति भावः वृत्तिर्वर्तनजीवने इत्यमरः तेजस्वितायाः तेजस्विनामित्यर्थः तेजः प्राधान्यद्योतनार्थम् भावप्रधानः निर्देशः प्रियम् प्राणमिव प्राणसममित्यर्थः अभिमानम् अहङ्कारम् निघ्नन् खण्डयन् तेजस्विनाम् प्राणहानिप्राया मानहानिरिति भावः
व्रीडानतैरात्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः वितानभूतम् विततम् पृथिव्याम् यशः समूहम् दिव दिग्विकीर्णम्
व्रीडेति पुनश्च आत्तजनेन उपनीतः साधितः प्रापितः इत्यर्थः तथापि संशय्य सन्दिह्य असम्भावितबुद्ध्या इति भावः व्रीडानतैः जुगुप्सितवृत्तान्तश्रवणादिति भावः नृपैः देशान्तरस्थैः कृच्छ्रेण प्रपन्नः आप्तोक्तत्वात् कथञ्चित् विश्वस्तः इत्यर्थः यः शृण्वतामपि दुःसहः किमुत अनुभवतामिति भावः इत्येषाम् पूर्वेषाम् व्याख्या अन्यथा च व्याख्यायते आप्तजनोपनीतः ज्ञातिकृतः संशय्य कथमिदम् अन्याय्यम् उपेक्ष्यमिति विचार्य व्रीडानतैः जुगुप्सितकर्मदर्शनादिति भावः नृपैः तत्रत्यैः कृच्छ्रेण प्रपन्नः अङ्गीकृतः गोत्रकलहेषु मध्यस्थैः उदासितव्यमिति बुद्ध्या उपेक्षित इत्यर्थः पक्षद्वयेऽपि प्रपन्न इत्यत्र आप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः पृथिव्याम् वितानभूतम् उल्लोचोपमितम् यद्वा वितानभूतम् वितानसमम् उल्लोचतुल्यमिति यावत् युक्तेक्ष्मादावृते भूतम् प्राण्यतीते समे त्रिषु इत्यमरः अस्त्रीवितानमुल्लोचः इत्यमरः दिग्विकीर्णम् दिगन्तलग्नम् वितानमपि दिगन्तलग्नमिति भावः विततम् प्रथितम् यशः समूहन्निव सङ्कोचयन्निवेति उत्प्रेक्ष अरातिपरिभूतस्य कुतः कीर्तिरिति भावः वीर्यावदानेषु कृतावमर्शः तन्वन्न भूतामिव सम्प्रतीतिम् कुर्वन् प्रयामक्षयमायतीनाम् अर्कत्विषामह्न इवावशेषः वीर्येति पुनश्च वीर्याण्येव अवदानानि तेषु कृतावमर्शः कृतास्कन्दनः पुराकृतपराक्रमजातान्यपि प्रमृजन्नित्यर्थः अवदानम् कर्मवृत्तम् इत्यमरः अत एव सम्प्रतीतिम् ख्यातिम् प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः इत्यमरः अभूताम् अविद्यमानामिवेति उत्प्रेक्ष सतोऽपि असत्त्वमुत्प्रेक्ष्यते तन्वन् कुर्वन् पुनश्च अह्नः अवशेषः दिनान्तः अर्कत्विषामिव आयतीनाम् उत्तरकालानाम् प्रयाम् अक्षयम् दैर्घ्यनाशम् कुर्वन्निति श्रौती पूर्णा इयम् उपमा अरिनिराकृतस्य कुतः चिरावस्थानमिति भावः प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुम् न शक्यः किमुताधिकर्तुम्। नवीकरिष्यत्युपशुष्यदार्द्रः सत्वद्विनामे हृदयं निकारः प्रसह्येति पुनश्च परैः शत्रुभिः अस्मासु प्रसह्य प्रयुक्तः आचरितः यः निकारः परिभवः केशाकर्षणरूपः स्मर्तुं न शक्यः अधिकर्तुं अनुभवितुं किमुत यस्य स्मरणमपि दुःसहम् अनुभवस्तु दुःसह इति किमु वक्तव्यमित्यर्थः सः निकारः त्वद्विना त्वया विना पृथग्विना इत्यादिना पञ्चमी आर्द्रस्सन् कुतश्चित् अभिभूतात् पुराणप्रहार इव त्वद्विरहदुःखात् पुनः नवीकरिष्यति नवीभविष्यतीत्यर्थः उपशुष्यत् त्वया विना शुष्कमिति भावः दुःखस्तम्भनम् शोषपदार्थः मे हृदयम् नवीकरिष्यति आर्द्रीकरिष्यति व्रणमिवेति भावः दुःखितस्य पुनर्दुःखोपचयः प्रशान्तप्रायमपि दुःखहेतुम् पुनरुद्घाटयतीत्यर्थः अत्र शोषादिविशेषणसाम्यात् व्रणाद्यप्रस्तुतार्थप्रतीतेः समासोक्तिरलङ्कारः प्राप्तोऽभिमानव्यसनादसह्यम् दन्तीवदन्तव्यसनाद्विकारम् द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः प्राप्त इति अभिमानस्य व्यसनात् भ्रंशात् व्यसनम् विपदि भ्रंशे दोषे कामजकोपजे इत्यमरः दन्तव्यसनात् दन्तभङ्गात् दन्तीव असह्यम् विकारम् वैरूप्यम् प्राप्तः अतः न प्रत्यभिज्ञायते इति भावः एवम् उत्तरत्रापि अनुसन्धेयम् पुनश्च द्विषत्प्रतापेन शत्रुतेजसा अन्तरितम् तिरस्कृतम् उरु तेजः प्रतापः यस्य सः तथोक्तः अत एव शरद्घनाकीर्णः शरन्मेघच्छन्नः अह्नः आदिः प्रत्यूष इव स्थितः तद्वदेव अप्रत्यभिज्ञायमानः इत्यर्थः मध्याह्नस्तु मेघावरणेऽपि कथञ्चित् प्रत्यभिज्ञायते एवेति आशयेन उक्तम् आदिरिति